रघुनाथस्य चित्रकूटि प्रविस्तरम्
एकैकमक्षरम् पुंसा महापातस्य नाशनम् चरितं रघुनाथस्य चित्रकूटि प्रविस्तरम्
एकैकमक्षरम् पुंसां महापातक नाशनम् ध्यात्वा नीलोत्पल श्यामम् रामं राजीव लोचनम्
जानकी लक्ष्मणो पेतं जटा मुकुट मंडितम्
काति तूण धनुर्बाण चरांतकम्
वलीलया जगत्रातुम् आविर्भूतमजं विभुम्
राम रक्षां पठित् प्राज्ञः पापघ्नीं सर्वकामदां
चिरूमि
कौसल्येयो दृशौ पातु विश्वामित्र प्रियः सुतिः
प्राणं पातु मकत्राता मुखं सौमित्र वत्सलः
विद्यां विद्यानिधि पातु कण्ठं भरत वन्दितः हृदयं जाम दग्निजित्
मध्यं पातु करं त्वन्ति नाभिं चापवदाशयः
चरितं रघुनाथस्य शतकोटि प्रविस्तरम्
एकैकमक्षरम्
ध्यात्वनीलोत्पल श्यामम् रामं राजीव लोचनम्
जानकी लक्ष्मणोपेतं जटा मुकुट मंडितम्
रक्षः कुल विनाशकृत्
जानुनी सेतु कृत् पातु जङ्घे दश मुखान्तकः
पादौ विभीषण चीदः पातु रामुखिरं वपुः चिरायुः सुखी पुत्री विजयी विनयी भवेत्
पातालभूतलव्योमं चारिणश्चद्मचारिणः
न द्रष्टुमपि शक्तास्ते रक्षितं राम नामभिः
रामीति राम भद्रेति।
ప్రతీ పాపర్ భుక్తి ముక్తి చ విందతి. యః కంఠే ధారయే తస్య కరస్థః సర్వసిద్ధయః. అవ్యాహతాగ్య సర్వత్ర లభతే జయ మంగళం. ఏకైకమక్షరం పుంసాం మహాపాతక నాశనం.
ఛాత్వానీలోత్పల శ్యామం శ్యామం రాజీవ లోచనం.
జానకీ లక్ష్మణో పేతం జటా ముకుట మండితం. तथा पुरुषः पूर्णः कौशल्येयोरभूतमः
वेदान्त वेद्योयज्ञेशः पुराण पुरुषोत्तमः
जानकी वल्लभः श्रीमान् प्रमेय पराक्रमः अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः संसारिणो नरः
रामं लक्ष्मण पूर्वजं रघुवरं सीतापतिं सुन्दरं
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् तिलकम् राघवम् रावणारिम्
रामाय रामचन्द्राय रामचन्द्राय वेदसे
रघुनाथाय नाथाय सीतायाः पतये नमः एकैकमक्षरं पुंसां महापातक नाशनम्
ध्यात्वा नीलोत्पल श्यामं श्यामं राजीवलोचनम्
जानकी लक्ष्मणो पेतं जटामुकुट मंडितम्
वरिष्ठम् पापात्मजं वानरयुतम्
रघुनाथस्य शतकोटि प्रविस्तरम्
एकैकमक्षरम् पुंसा महापातकनाशनम्
ध्यात्वा नीलोत्पलश्यामम् रामं राजीवलोचनम्
जानकी लक्ष्मणोपेतम् जटामुकुट मंडितम्
निशाचर चमूरामाय तस्मै नमः
रामास्ति परायणं परतरं रामस्य दासोऽस्म्यहम्
रामे चित्तलयः सदा भवतु मे भो राम माम् उद्धर
राम रामे
नाम तत्तुल्यं राम नाम वरानने चरितं रघुनाथस्य शतकोटि प्रविस्तरम् एकैकमक्षरं पुंसां महापातकनाशनम् नीलोत्पलश्यामम् रामं राजीवलोचनम् जानकी लक्ष्मणो पीतं जटामुकुटमण्डितम्